गीता साधक संजीवनी छठा अध्याय श्लोक 21 से 30 तक।
वसुदेव सुतं देवं कंस चारुरमर्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितस्तरति तत्त्वतः यं लब्ध्वा च परं लाभं मान्यते नाधिकं तत्। यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्याद्दुःखसंयोग वियोगं योगसाङ्गितं स्वनिष्ठजेन योक्तव्यो योगो निर्विन्न चेतसा संकल्प प्रभवान् कामास्त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामं विनियाम्य समन्ततः शनैः शनैरुपरमे बुद्ध्याधिति गृहीतया आत्मसंस्थमो मनः कृत्वा न किञ्चिदपि चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरं ततस्ततो नियमयैत आत्मन्येव वशं नयेत् प्रशान्तमनसंहीनं योगिनं सुखमोत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकर्मषं योजन्नेवं सदात्मानं योगी विगतकर्मश सुखेन ब्रह्म संस्पर्श अत्यन्तं सुखमश्नुते सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनं यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।
वसुदेव सुतं देवं कंस चारुरमर्दनं देवकी परमानंदं